श्रीपराहुषपादाभ्यः सुरभिकृतमौलये श्रीवत्सचिह्ननाथाय भाष्यकाराय मङ्गलम् नाथ पद्माशरामार्य पादपङ्कजसेविने सेव्याय सर्वयमिनायतिराजाय मङ्गलम् पूर्णाय पूर्णकरुणापात्र आयामितेजसे मालाधरप्रियाय यतिराजाय मङ्गलम् संसेव्य यामुनाजायं ये कलव्योऽस्म्यहं गुरोः इत्येवं वदते नित्यं यतिराजाय मङ्गलम् श्रीकाञ्चीपूर्णविश्रोक्त रहस्यार्थविदे सदा देवराजप्रियायास्तु यतिराजाय मङ्गलम् श्रीमद्गोष्ठीपुरी पूर्ण दिव्याज्ञापूर्वरे मुदा शोकार्थं गृह्णते तस्मात् यतिराजाय मङ्गलम् पूरेण गुरुकानार दाशरत्यादिदेशिकाः यच्छिष्या भवन्ति ते तस्मै यतिराजाय मङ्गलम् धर्मश्लोकतत्त्वार्थं ज्ञात्वाज्ञा विलङ्घ्य च ददते तं स्वदीये यतिराजाय मङ्गलम् श्रीशैलपूर्णकृपया श्रीरामायणमर्थतः भक्त्या येन श्रुतम् तस्मै यतिराजाय मङ्गलम् शङ्करादिकुदृष्टीनां बाह्यानामिधनाय च श्रीभाष्यं कुर्वते तस्मै यतिराजाय मङ्गलम् कुर्वन् उपनिषद्भाष्यं जगत्रशाकरो हि यः दयाया परतन्त्राय भाष्यकाराय मङ्गलम् तमिलोपनिषद्व्याख्यां कलयेति कृपाहरात् शासते कुरु केशं तम् भाष्यकाराय मङ्गलम् गत्वा तु शारदापीठं वृत्तिं बोधायनस्य च अवलोक्यागतायास्तु भाष्यकाराय मङ्गलम् परमानुवृषावादिवादसंहारकारिणे तस्मै भगवते श्रीमत् भाष्यकाराय मङ्गलम् श्रीमत्कुरङ्गपूर्णाय श्रीभाष्यं भजते स्वयं पित्रे सम्पत्सुतस्यापि भाष्यकाराय मङ्गलम् दत्त्वा वृषगिरीशस्य शङ्खचक्रे रमापतेः परमप्रीतियुक्ताय भाष्यकाराय मङ्गलम् सन्ध्यासं कुर्वते काञ्च्यामनन्तसरसीतटे वरदेन्यस्तभराय भाष्यकाराय मङ्गलम् श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वरः कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् शेषो वा सैन्यनाथो वा श्रीपतिर्वो अधिसात्विकैः पितर्त्याय मता प्रज्ञैः यतिराजाय मङ्गलम् सकृ कृष्णगुणपूर्णाय प्राप्याय स्वाभिसेविनां प्रपन्नतार्थवाहकाय यतिराजाय मङ्गलम्। वेदात्मकप्रमाणेन सात्विकैश प्रमाश्रुभिः प्रमेयेन सह श्रीमान् वर्धताम्यतिशेखरः।